आदक्षीणा सृज्यते सृष्ण्या आसतम् वेति द्रुवो रक्षसः पातिजाग्रीभिः हरिरोपसङ्कृणुतेन भस्मजमुपस्थिते चम्भो ओर्ब्रह्म निर्मिजे प्रकृष्टिगेव सूषये तिरोरुपदसुर्या अम्बर्णम् निरीणीते अस्य तम् जगादिपव्रम् पितुरे वयष्कृतमुपप्रतम् कृणुते निर्निजम् तना अद्रिभिः सुतः पर्वते गपश्चोर्षायते नभसा पेपते मती समोदतेन स ते साधते गिराणे निक्ते अप्सु यजते परीमणि परिद्युक्षम् सहसः पर्वतावृतम् मध्वस्सिञ्जन्ति हर्म्यस्य सक्षणिम् आयस्मिन् गावः सुहृतादभूतानि भूर्ध्वम् क्षेणन्त्यग्रियम् वरीमभिः समीरछन्न भुरुजो रहेत तदसस्वसारो अधीते रूपस्था जिगादुपज्रय जिगोरभीच्यम् पदम् यदस्य मथुथा अजीजनन् श्येनो न यो निंसदनम् धिया कृतम् हिरण्ययमासदम् देवयेषति ये रीरन्ति बर्हिषः प्रियम् गिरा सोलदेवाप्येति यज्ञियाः पराव्यक्तो अरुढो दिवः कविर्मृषा त्रिपृष्ठो अनविष्टगा अभि सहसनीतिर्यतिः परायति रेभो न भूर्वीरुषसो विराजति एषम् रूपम् त्रेणुते वर्णो अस्य स यद्रास यत्सृदासेधतिश्रियः अप्सायादिस्वधया दीव्यञ्जनम् संसुष्टुतीन स ते सङ्गो अग्रया उक्षेप यूथापरियन्नलाभीदधिद्विषीरधितसूर्यस्य दिव्यः सोपर्णावदक्षदक्षाम् सोमः परिक्रतूनापश्य तेजाः